सर्वेभ्यो नमस्कारः.
नमस्कारः.
सो विल् स्टार्ट्. अध्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः. अध्योगिनम् उद्योग, वि ओल् नो वट् उद्योग इस्. उद्योग इस् सम् सोर्ट् आफ् वे आफ् मेकिङ्ग् मनी, लिविङ्ग्. अध्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः. पुरुषसिंहम् उद्योगिनं लक्ष्मीः उपैति. If you say it like that, it means that prosperity or adyoginam, one that is derived from adyog, is adyoginam purashtiham. Upayati is something that reaches or approaches. Lakshmihi upayati. Lakshmi comes to prosperity, comes to those people who are brave like a lion. Purush Siham. So it's so what is the main meaning behind it? This Subhashitam is everyone will have draw their own based on meaning based on their own circumstances, but mainly that everyone should be like a, should just take decisions and work like a brave person or be a brave person. So let's do the lead and follow Gitam, and then we can take it from there. सुरस सुबोध विश्वमनोज्ञ.
सुरस सुबोध विश्वमनोज्ञ. भगिनी, इफ यू कुड ब्लो इट अ लिटिल, इट्स वेरी स्मॉल द फॉन्ट.
कैन लिटिल बिगर.
या लिटिल बिगर फॉन्ट.
लेट मी डू द Yeah. Is it better
yeah.
now?
Yeah, better.
Yes,
yes. Lalita Hridaya Ramaniya.
Lalita
Hridaya Ramaniya.
Amritvani Sanskrit Bhasha.
Amritvani Sanskrit Bhasha.
Naiv Klishtha Nach Kathina. नैव क्लिष्टा न च कठिना.
नैव क्लिष्टा न च कठिना.
कवि कोकिल वाल्मीकि विरचिता.
कवि कोकिल वाल्मीकि विरचिता.
रामायण रमणीय कथा. अतीव सरला मधुर मञ्जुला.
अतीव सरला मधुर मञ्जुला.
नैव क्लिष्टा न च कठिना.
नैव क्लिष्टा
न च कठिना. नैव क्लिष्टा न च कठिना. व्यास विरचिता गणेश लिखिता. महाभारते पुण्य कथा.
महाभारते पुण्य कथा.
पाण्डव सङ्गरमथिता.
पाण्डव सङ्गरमथि.
नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना
नैव क्लिष्टा न च कठिना
कुरुक्षेत्र सम्राङ्गण अमृत अमृत मधुरा कर्म दीपिका
अमृत मधुरा कर्म दीपिका
नैव क्लिष्टा च कठिना नैव क्लिष्टा
च कठिना
कवि कुल गुरु नवरतोनमेषजा ऋतु रघुकुमार कविता
ऋतु रघुकुमार कविता
विक्रम शाकुंतल नैव क्लिष्टा न च कठिना नैव
क्लिष्टा न च कठिना
मम नाम अनुराधा मम नाम अनुराधा सीमा भगिनी भवत्याः नाम किम्
मम नाम सीमा भवत्या नाम किम्
भवत्याः
नाम किम्
धन्यवादः मम नाम अनुराधा कृष्णन् महोदय भवत्याः नाम किम्
भवतः नाम किम् मम नाम कृष्णन् मम नाम कृष्णन् भवत्याः नाम किम्
मम नाम अनुराधा अपर्णा भगिनी भवत्याः नाम किम्
मम नाम अपर्णा भवत्याः नाम किम्
मम नाम अनुराधा सौजन्या भगिनी भवत्याः नाम किम्
मम नाम सौजन्या भवत्याः नाम
मम नाम अनुराधा शिल्पा भगिनी भवत्याः नाम
मम नाम शिल्पा भवत्याः नाम किम्
मम नाम अनुराधा सत्यमहोदय भवतः नाम किम् दीपन् महोदय भवतः नाम किम्
मम नाम दीपनः
धन्यवादः महोदय सत्यमहोदय अस्ति वा अस्तु न श्रूयते अहम् अनुराधा भवान् कः भवती का अहम् अनुराधा सीमा भगिनी भवती का
अहम् सीमा भवती का
धन्यवादः अहम् अनुराधा कृष्णन् महोदय भवान् कः
अहं कृष्णः भवती का नाम
अहम् अनुराधा. अपर्णा भगिनी, भवती का? भवती का?
अहम् अपर्णा. भवती का?
अहम् अनुराधा. सौजन्या भगिनी, भवती का?
अहं सौजन्या. भवती का?
अहम् अनुराधा. शिल्पा भगिनी, भवती का?
अहं शिल्पा. भवती का?
अहम् अनुराधा. सत्यमहोदय, भवान् कः? दीपन् महोदय, भवान् कः?
अहं दीपनः. भवती का?
अहं महिला. सीमा भगिनी, भवती का? अहं महिला, अध्यापिका. अहं चतुरः, अहं चतुरा. अहं शिष्या. अहं छात्रा. अहं वैद्या. अहं अनुराधा. अहं महिला. सीमा भगिनी, भवती का?
अहं चित्रकार.
चित्रकारी.
चित्रकारी.
अहं चित्रकारी. अपर्णा भगिनी, भवती का?
अहम् अपर्णा. अहं महिला. अहं लेखिका. अहं चतुरा.
शिल्पा भगिनी, भवती का?
अहं शिल्पा. अहं महिला. अहं चतुरा.
समीचीनम्. दीपन् महोदय, भवान् कः? भवान् कः?
अहं दीपनः. अहं पुरुषः. अहं सॉफ्टवेयर इंजीनियर.
अहं तांत्रिकः.
सॉफ्टवेयर इंजीनियर, व्हाट डू यू से मैन?
आई विल कम बैक टू इट, इट्स जस्ट गॉन. तांत्रिकः, सॉफ्टवेयर तांत्रिकः कुछ है. विल कम बैक टू दैट. आसन्दः अस्ति. आसन्दः अस्ति. उत्पेटिका अस्ति. पुस्तकानि सन्ति. पुस्तकानि सन्ति. महिला अस्ति. जवनिकः अस्ति. ध्वजः अस्ति. कटः अस्ति. व्यजनम् अस्ति. उत्पे आसन्दः अस्ति. आसन्दः अस्ति वा? आसन्दः अस्ति वा? आम्, आसन्दः अस्ति. उत्पेटिका अस्ति वा? उत्पेटिका अस्ति वा? उत्पेटिका
अस्ति वा?
आम्,
उत्पेटिका अस्ति.
मार्जरः अस्ति वा? न, मार्जरः नास्ति. मार्जरः इस् केट्. मार्जरः अस्ति वा? न, मार्जरः नास्ति. अस्तु. जवनिका अस्ति वा भगिनि?
भगिनि, जवनि,
सोरि, वदतु. जवनिका?
ओके.
जवनिका अस्ति.
आम्, जवनिका अस्ति. अस्तु. कृष्णन् महोदय, ध्वजः अस्ति वा?
ध्वजः नास्ति.
ध्वजः अस्ति.
ध्वजः अस्ति. आम्, ध्वजः अस्ति.
ध्वजः अस्ति. पुरुषः अस्ति वा? अपर्णा भगिनी?
आम्, पुरुषः अस्ति.
धन्यवादः. सौजन्य भगिनी, उत्पेटिका अस्ति वा?
आम्, उत्पेटिका अस्ति.
धन्यवादः. दीपन् महोदय, दूरवाणी अस्ति वा?
न, दूरवाणी नास्ति.
न, दूरवाणी नास्ति. धन्यवादः. अस्तु. आम्, आसन्दः अस्ति. उत्पेटिका अत्र अस्ति वा? अत्र, अत्र. आम्, उत्पेटिका अत्र अस्ति. आम्, उत्पेटिका अस्ति अपि सम्यक् अस्ति. अत्र इस् हियर्. आम्, उत्पेटिका अत्र अस्ति. पुरुषः, स्त्री, ध्वजः, द्वारं. द्वारम् अस्ति वा? द्वारं भगिनी, सीमा भगिनी, द्वारम् अस्ति वा?
द्वारं नास्ति.
न, द्वारं नास्ति.
गोष्ठ अस्ति.
वृक्षः, वृक्षः अस्ति. वृक्षः अस्ति वा?
आम्, वृक्षः तत्र अस्ति.
वृक्षः तत्र अस्ति. अत्र, तत्र. लास्ट् टैम् वी लर्न्ड् अबौट् अत्र, तत्र, कुत्र, सर्वत्र, एकत्र, रिमेम्बर्? अत्र अस्ति. अस्तु. आकाशः, तोयं. तोयम् इस् वाटर्. पत्रं, पुष्पं, वृक्षः. अस्तु. अस्तु. नेक्स्ट् इस् सम्बोधनं. वेन् वि हेव् टु अड्रेस् सम्बोधि. Rajesh Mohde, swagatam, welcome to the class, just joined. Astu, Ramaha. Ramaha. Bhavan, video, ma karotu. Rajesh Mohde. धन्यवादः. रामः, रामः. वेन् वी हेव् टु डू द सम्बोधन् विल् से हे राम. विकल्पना करोतु, विकल्पेन रामः दूरे अस्ति. यदा रामः दूरे अस्ति, विकल्पना करोतु आह्वनं, दूरात् आह्वानं यदा आह्वनं करोति, तर्हि राम, हे राम, बीजस्मे राम, अत्र आगच्छतु राम, जलं पिबतु राम, अत्र आगच्छतु राम, मया सह चलतु. इदानीं हे राम और राम. कृष्णः सम्बोधन कृते कृष्ण. हे कृष्ण. अत्र महोदय अस्ति. हे कृष्ण, हे कृष्ण, हे राजे. सो इ if phala he phala he phala he pustaka pustaka he pustaka he mitra हरे राम धन्यवादः सो हे राम हे सो नेक्स्ट इस् हियर् वी आर् अगेन् यूसिङ्ग् द सम्बोधनं सम्बोधनं लैक् वक्तुण्डमहाकाये सूर्यकोटिसम्प्रभु निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा सो देव देव इस् सम्बोधनम् वक्रतुण्डमहाकाय सूर्यकोटिसम्प्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा सो वेन् इट्स् ए फेमिनैन् देन् वी हेव् आ इन् द एण्ड् द आ चेञ्जेस् टु ए सीते हे सीते हे सीते सीते हे गीते हे राधे हे राधे सो हे गौरी सो गौरी फॉर एग्जांपल इट विल चेंज टू स्मॉल ई रादर देन लॉन्ग ई व्हेन इट्स एंडिंग विथ Ikaranta, then it's a small e. For example, Nadi. We will say, He Nadi. He Devi. So when it's Akaranta, like we did before, it changes to Amba. He Amba. So here is a shloka for sambodhanam vibhakti gange cha yamune chaiva godavari saraswati narmade sindhu kaveri jale asmin sanad guru
bhagini I have a question aparna aham aparna
bhagini vadatu
See, the Sambodhanam, this is only in case of shlokas or is it used in daily life also? Like, suppose I'm calling somebody.
We are going to do that. We are going to do that. Okay. So there is another Sambodhanam, Saraswati. You will see Saraswati here. Is in short E. Varde Kamarupini. It's a small E here as well. So now we will go through the exercise before we move to next slide. So if we have to call anybody, for example, here we have Seema Bhagini, Krishnan Mohade, myself, Aparna Bhagini, Sojanya Bhagini, Shilpa Bhagini, Satya Mohade, we can't hear you, Deepan Mohade and Rajesh Mohade. So we will, let's assume that Seema Bhagini is addressing Krishnan Mohade. Bhavati, katham avyati? Vadutu Bhagini, Seema Bhagini? Call Krishnan Mohade. How will you address Krishnan Mohade?
I mean, what I have to tell?
Like, hey Krishna.
Oh.
Hey Krishnan. When it's Amba, Aparna, then Aparne. Hey Sime.
Hey Krishnan.
Hey Krishnan. Hey Krishna. Oh, hey Krishnaha.
Krishnaha. Okay. Krishnan, Krishna.
Krishna, Kshamyatam. Hey Krishna would be correct. Also, oh, hey Krishna. It will be just like Ramaha. Ramaha, the visarga goes and it's just Rama. When it's a masculine, the visarga goes and it's just He Rama. When it's a neuter, the Ma goes and it's He Phale, He Mitre. When it's a Istrilingam, then it's A goes and it changes to A and it becomes He Sita, He Shilpe, He Stojanye, He Aparne, He Krishna, hey Krishna.
Hey Krishna.
Krishna yadi feminine asti, strilingam asti, hey Krishna. Yadi linga asti, hey Krishna. Hey Rama. Hey Shiva. So you don't use any visarga or anything after that. Shall we go back to the slides? I will go back.
Yeah.
Go back.
Is it only by addressing Tavanas or by introducing Narasim Tavan? Like the previous one where we used Aham Saujanya. So there also do we use Aham Saujanya?
Bhagini, Puna Vadatu?
Hello?
Sorry, what was your question, Bhagini? Puna Vadatu?
Okay, the question was, we just spoke, right? For Sreelinga, in case of A, it would be A. So is it only by calling someone else, like Hazy say? Or if I have to introduce myself, would I be saying Aham Saujanya or Aham Saujanya?
Aham Saujanya. You are not addressing yourself.
Okay. So
it's
only when it is in someone else, then it would be
R to A. Yeah.
Okay.
So when you are saying aham, like we did aham mahila, aham chatura, you are just saying, you are not addressing, you are telling that is what I am.
Okay.
And so here we have visarga in the Ramaha. We'll do Ramaha. H is there. So when we are doing the address, it's a Hey Rama. There is no visarga after that. Yeah? So, for example, hey, when we are doing Krishna, huh? So visarga goes and it becomes Hey Krishna. I think there is some noise. I don't know. There is no mic. So when it is neuter, so M, like Phalam, Pustakam, Nagaram, Ma will be dropped and it becomes Hey Phale. Hey Phala. This. Akshamitam, hey Phala. Just not, nothing else comes. Hey Mitra. So here is a shloka or the chanting. So we just say hey Hare Rama. We don't say Hare Ramaha. We just say Hare Ram, Hare Ram, Ram Ram, Hare Hare. So it will remind you that there is no visarga in the end. That is why we had this shloka. So here also, you see that here is just Deva. There is no Devaha. Yeah? This is just to reminds that how it should be done. So here, Sita, A was dropped and A was added. He Sita. Radhe. Then, here, Gauri, we have long E here. Gauri, Nadi. So, long E will change to short E when we are addressing, hey Gauri. Instead of Gauri, it becomes hey Gauri. Devi, Devi. Hey Devi. So, Amba, Amba becomes, it's a slightly different, Amba adds a, hey Amba. So here is a shloka to remember the sambodhanam. Gange cha yamune chaiva godavari saraswati narmade sindhu kaveri jale asmin sannidhim kuru. Sannidhim kuru. Yeah? Astu. So, now we can quickly do the Sambodhanam for each other. So, Seema Bhagini did already to Krishnan Mode. Krishnan Mode, can you do to Aparna Bhagini? How would you call her?
She Aparne.
Dhanyavada. So, Janya Bhagini, can you call Krishnan Mode?
Hey Krishna, hey Krishna.
Hey Krishna.
Hey Krishna.
So, Shilpa Bhagini, you call Saujanya Bhagini.
Hey Saujanya.
Dhanyavada. Dipan. Dipan Mohde. Can you call Rajesh Mohde? How would you call Rajesh Mohde?
Hey Rajesh. Hey Rajesh.
Dhanyavada. Rajesh Mohde, can you call Deepan Mohde? How would you call him?
Hey Deepan.
Hey Deepan. Dhanyavada. There is I have to mute some people. Shamyatam. So, Ramaha Asti. Ramaha Asti. Ramaha Asti. Dhanuhu Asti. Dhanuhu Asti. Ramasya Dhanuhu. Ramaha Asti. Dhanuhu Asti. Ramasya Dhanuhu Asti. Ramasya Banaha Asti. Ramasya Banaha Asti. Krishnaha Astiva, Seema Bhagini. Krishnaha Astiva. So, Seema Bhagini, unmute yourself and tell me Krishnaha Astiva.
Krishna Asti.
Krishnaha Asti. Krishnan Mohde, Venuhu Astiva, Venuhu Astiva. Krishnan Mohde, Venuhu Astiva. Nashruyate.
Astiva.
वेणुः अस्ति वा?
हा वेणु अस्ति.
आम् वेणु अस्ति. आम् वेणुः अस्ति.
आम् वेणुः अस्ति.
कृष्णः अस्ति, वेणुः अस्ति, कृष्णस्य वेणुः अस्ति. इत्युक्ते कृष्णस्य वेणुः. कस्य वेणुः? कृष्णस्य वेणुः. कृष्णस्य वेणुः. कृष्णस्य पत्नी का? कृष्णस्य पत्नी का? कृष्णस्य क्षम्यता. कृष्णस्य पत्नी अपर्णा भगिनी वदतु, कृष्णस्य पत्नी का?
कृष्णस्य पत्नी रुक्मिणी.
अस्तु, कृष्णस्य पत्नी रुक्मिणी. अस्तु, रामः अस्ति. रामः, रामस्य पत्नी सीता. अस्तु, रामस्य अस्ति, रामः अस्ति, पत्नीः अस्ति, रामस्य पत्नी सीता अस्ति. वृक्षः अस्ति, पर्णम् अस्ति, वृक्षस्य पर्णम् अस्ति. अस्तु, इदानीं कृषकः. अहं कृषकः वदामि, सर्वे एकमेकं तस्य कृषकः. कृषकस्य, सैनिकः सैनिकस्य वदतु. सीमा भगिनी, आरक्षकः. भगिनी अन्म्यूट् करोतु. आरक्षकः.
आरक्षकः अस्ति.
आरक्षकस्य. आरक्षकः अस्ति. आरक्षकस्य, जस्ट् आरक्षकस्य. रामः अस्ति, रामस्य. रामस्य, रामः, रामस्य. कृषकः, कृषकस्य. सैनिकः, सैनिकस्य. आरक्षकः, आरक्षकस्य. वैद्यः. कृष्णन् महोदय वदतु, कृष्णः. वैद्यः. न श्रूयते. अस्तु, अपर्णा भगिनी वदतु.
वैद्यः, वैद्यस्य.
धन्यवादः. सौजन्या भगिनी, चित्रकारः.
चित्रकारः, चित्रकारस्य.
शिल्पा भगिनी, भारवः.
भारवहस्य.
दीपन् महोदय, चर्मकारः. चर्मकारः. अस्तु, श्रूयते. तन्त्रज्ञ. तन्त्रज्ञ महोदय. कृष्णन् महोदय वदतु. भवान् न श्रूयते.
am. Is it Tantragnah or Tantragyah?
Tantragyasya. So, it is karamkarah, karamkarasya, nartakah, nartakasya, lipikarah, lipikarasya. So, Rajesh Mohde, let's start from the nataha. Can you say? Nataha.
Natasya.
Natasya. Dipan Mohde, Dhivaraha. Dipan Mohde? Dhivarasya.
Dhivarasya.
Dhanyavadaha. Swarnakaraha.
Swarnakarasya.
Satya Mohde, I don't know whether he's there. Shilpa Bhagini, next, Aapne Kaha.
Aapne Kaha.
Vikray Kaha. That is you. So, Janya Bhagini.
Vikray Kaha. Aapne
Kaha.
Aapne Kaha.
Dhanyavadaha. Anybody else I have missed out? So, grahakaha, grahakasya. So, next one, what we will do, chashakaha, chashakasya, chashakasya. We can use anything after that, like gopalakaha, gopalakasya mitram, sevakasya nama, adhyapakaha, adhyapakasya putra, chalakasya vahanam, lekhakasya kavita, prabandhakasya karyakarta raha, nirdeshakasya chalchitram. Like that, we can use any shabdaha to make a sentence. Archakaha, archakasya, mandiram, vyadhaha, vyadhasya, khagaha. Patra vitarakaha, patra vitarakasya, patram, gayakasya, geetam. So we can try to make sentences like that. So for example, here gopalakaha, gopalakasya graham, ganeshaha asti, mushakaha asti, ganeshasya mushakaha, ganeshasya vahanam mushakaha, skandaha asti, miuraha asti. Astu, Seema Bhagini, ekam vakyam vadatu. Skandaha asti, miuraha asti.
Shlokam asti, chandasya asti.
Chandaha asti. Shlokasya chandaha asti. Shlokasya chandaha
asti.
Vrikshasya bilam
asti. Kamadevasya bana asti.
Dhanyavadaha bhagini. Aparna bhagini. Abhishekaha.
Abhishekasya amba.
Abhishekasya amba. Bhagini, Shilpa bhagini, next one. Chatraha asti, lekhni asti.
Chatrasya lekhani.
Chatrasya lekhani asti. Dipan Mohde. पुत्रः पुत्रस्य पुत्रः पुत्रस्य पुत्रः अस्ति. बालकः द्विचक्रिका. कृष्णमहोदय वदतु वदतु.
अस्ति
द्विचक्रिका
बालकस्य.
धन्यवादः. अस्तु, जनकः कार्यानं. जनकः कार्यानं. राजेश महोदय, जनकः कार्यानं.
जनकस्य कार्यानं.
जनकस्य कार्यानम्. अस्तु, धन्यवादः. दीपन् महोदय, पितृमः उपनेत्रम्.
पितामहस्य उपनेत्रम्.
पितृमः उपनेत्रम्. धन्यवादः. सूर्यः अस्ति, तापः अस्ति. सीमा भगिनी, सूर्यः अस्ति, तापः अस्ति.
सूर्यस्य तापः अस्ति.
धन्यवादः. सूर्यस्य तापः अस्ति. सो दिस् इस् हौ वि मेक् द सेण्टेन्सेस् वित् षष्टिविभक्ति. दिस् लैक् ए पोसेसिव् केस् फोर् सम्बडीस् लैक् वि यूस् in to say somebody's qualities or something to Ramasya, some relation or some sort of possession that they might have. So Krishna asti, like Krishna asti, Venu asti, Krishna se Venu asti. It means the Krishna se, it is flute, Krishna ki flute. That is how you might say in Hindi. So, Satya Mohadev, I have taken your chat message. We can't hear you. So, Kshamyatam, maybe you need to check your headphones or something when you connected. So, let's continue. Krishna, huh? Krishnasya patni Rukmani. So now we are going to make a sentence like horizontally. Kshamyatam. Krishnasya patni Rukmani. Amba Obama Mohode patni Michelle. Obama Mohodasya patni Michelle. Dashrathasya putraha Rama. Janakasya पुत्री मैथिली. जनकस्य पुत्री मैथिली. अरविन्दस्य कार्यानं मर्सिडीस्. स्कन्धस्य वाहनं मयूरः. नारायणस्य वाहनं गरुडः. अस्तु, दशरथः अस्ति, रामः अस्ति, शिवः अस्ति, गणेशः अस्ति, पाण्डुराजः अस्ति, अर्जुनः अस्ति, वासुदेवः अस्ति, कृष्णः अस्ति, सूर्यः अस्ति, कर्णः अस्ति. एकमेकं वाक्यं वदतु. दशरथस्य पुत्रः रामः. कृष्णन् महोदय, अन्म्यूट् करोतु. दशरथस्य पुत्रः, ओ सोरि, शिवस्य गणेशः. धन्यवादः महोदय.
पाण्डुराजस्य पुत्र अर्जुनः.
एक अपर्णा भगिनी, नेक्स्ट् वन्, केन् यु मेक् द नेक्स्ट् वन्?
ओके, शिवा, शिवा, दट् इस् नाट् डन्.
Anyone, anything.
Shivaha Shivasya putraha Ganeshaha.
Shivasya putraha Ganeshaha. Next one, Sojanya Bhagini.
Pandurajasya putraha Arjunaha.
Pandurajasya putraha Arjunaha. Next is Shilpa Bhagini.
Vasudevasya putraha Krishnaha.
Samichinam. Next, Dipan Mohde. Dipan Mohde, next one. Now, Shruvita Dipan Mohde. Rajesh Mohde, next one.
Suryasya, Suryasya, kaha, karnaha, karnaha.
Suryasya, putraha, karnaha. So we can make the other way round as well. Ramasya, pita, dasharatha. Ganeshasya, pita, shivaha. Arjunasya, pita, pandurajaha. Krishnasya, pita Vasudevah, Karanasya pita Suryah. Astu. Sima Bhagini.
Karanasya pita Suryah.
Krishnan Mode.
Hello.
Hello.
Oh, connection disconnected. Hello.
Hello. I can hear you.
Yes. The stop just stop. Why? Hello.
Hello. Bhavan, ekam vakyam vadatu.
Ah, Suryasya putra karna ha. That is all right. Christian speaking.
Krish. Surasya putra karnaha, karnasya pita suryaha. Dhanyavadaha.
Pita vasudevaha. Arjunasya pita pandurajaha. Ganeshasya pita shivaha. Ramasya pita dasarathaha.
Ekam vakyam rachitu. Dhanyavadaha. So and now you can see how we can say the possessive case in terms of, we can say in our relationship as well, that for example, Krishnasya putraha nama kim. We can add that if you want ki, like Ramasya pita nama kim. Ganeshasya pita nama kim. Arjunasya pita nama kim. Krishnasya pita nama kim. Karnasya pita nama kim. Or Suryasya putraha nama kim. Vasudevasya putraha nama kim. So you could add prashnavachak shabdaha. Punam Vakyam. So now there's another example. So you could ask Prashnavachak Shabdaha here. Prashnavachak Vakyam. Parshuramaha asti, Karnaha asti. So here's a different relation here. Shishyaha Guruhu. Parshuramasya Shishyaha Karnaha. Karanasya Guruhu Parshuramaha. So, Rajesh Mohde, ekam vakyam vadatu.
Dronacharyasya Shishyaha Ekalavyaha.
Ekalavyasya
Guruhu Dronacharyaha.
Samichnam. धन्यवादः दीपन् महोदय. नेक्स्ट्
द्रोणाचार्यस्य शिष्यः एकलव्यः एकलव्यस्य गुरुः द्रोणाचार्यः.
समीचीनं. नेक्स्ट् वन् शिल्पा भगिनी.
रामकृष्णस्य शिष्यः विवेकानन्दः विवेकानन्दस्य गुरुः रामकृष्णः.
समीचीनं धन्यवादः. सौजन्य भगिनी.
वसिष्ठस्य शिष्यः रामः रामस्य गुरुः वसिष्ठः.
समीचीनं. देन् पर्ण भगिनी.
आदिशङ्करस्य शिष्यः पद्मापादः पद्मापादस्य गुरुः आदिशङ्करः.
धन्यवादः. सीमा भगिनि.
परशुरामस्य शिष्य कर्णः कर्णस्य गुरुः परशुरामः.
धन्यवादः. कृष्णन् महोदय.
परशुरामस्य शिष्यः कर्णः कर्णस्य गुरुः परशुरामः.
सो नौ वि केन् से सः सः तस्य एषः एतस्य कः कस्य 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 परशुरामः परशुरामस्य कस्य शिष्यः कर्णः कस्य शिष्यः कर्णः कर्णस्य गुरुः परशुरामः कर्णस्य कस्य कस्य गुरुः परशुरामः कस्य शिष्यः कर्णः. सो सेम् वे वि केन् यूस् दीस् फोर् द प्रोनौन्स् एस् वेल्. कस्य तस्य तस्य इस् वेन् सम्बडि इस् फार् अवे. सः सः चेञ्जस् टु तस्य एषः एतस्य. सः तस्य एषः एतस्य कः कस्य. सो फलमस्ति फलं फलस्य रागः फलस्य रागः रक्तमस्ति रेड् अस्ति फलस्य एतस्य पुस्तकस्य एतस्य पुस्तकस्य नाम एतस्य पुस्तकस्य नाम रामायणं. सो यु कुड् यूस् एनीथिङ्ग् लैक् देट्. सो विल् डू लिटल् बिट् आफ़् प्राक्टिस् देर्. एषः कृष्णः एषः कृष्णः एतस्य जनकः वासुदेवः. सो when you are writing, for example, in English, this is Krishna, he is a father, is a Vasudevaha, then you are saying some pronoun here. Eshaha Krishnaha etasya janakaha etasya pita janakaha Vasudevaha etasya etasya janakaha Vasudevaha. सः सः तस्य पत्नी देवकी. कस्य भगिनी सुभद्रा. सो कस्य भगिनी सुभद्रा. सुभद्रा कस्य पत्नी अस्ति?
means sister, right?
Krishnasya bhagini Subhadra.
Bhagini.
Bhagini is a sister. So, Krishnasya bhagini Subhadra. Krishnasya patni Devaki. Krishnasya janakaha Vasudevaha. So, when we are trying to say in terms of relationship, whose sister was Subhadra, whose patni was Devaki, whose father was Vasudeva, so we can use the pronoun tasya, kasya, etasya. Etasya is used when something is nearby, and when something is far away, then you will use tasya. So here is a shloka related with the Shashti Vibhakti. Here, like Rakshasya, Rodrasya, Ravanasya, Duratmanaha, Kim tu yatna yatnastavya karyo maitliyaha parimargane rakshasya cha rodrasya ravanasya duratmanaha. So whose efforts, indeed efforts must be done by you in tracing the maitli, princess of maitli, maitliyaha, and of the evil-minded, fierce demon Ramanaha. Here, Duratmanaha, Ravanasya, Rodrasya, Rakshasya. So, fierce demon Ramanaha, Duratmanaha, the evil-minded. So, here, Kim, Tu, Tu is but. Yatna, Tavaya, Yatnaha, Tavaya. So, by you, yatnaha, the efforts must be done. But efforts must be done. Karyaha, maitliyaha. So, maitliyaha is the maitli. Maitli is the Sita. Maitliyaha. Parimargarne. To find Sita, the karya must be done. And the evil-minded Duratmana, Ravanaha. So that is the shloka. Just to I've just explained a little bit here to explain the Shashti Vibhakti here. So when we go to the neuter now, patra. So M is dropped here, like we did with the Sambodhana as well, and Sya is added. So like with Ramaha as well, we drop the Visargaha and added Sya, Ramasya. Here, Patram, Patrasya. Pustakam, Pustakasya. Pushpam, Pushpasya. So, let's do a little bit of practice, although it's quite similar to neuter. So, we can just quickly go through these. Please read three at a time. So, Seema Bhagini, Phalam, like you will say three, next three, Nainam to Toyam.
Phalam, Phalam, Phalamasya, Nayanam, Nayanamasya, Naitram, Naitramasya.
Ma is dropped. Phala, Phalam, Phalasya, Nainam, Nayanasya, Naitram, Naitrasya. Ma does not come there, yeah? So, Krishnan Mohde, next three.
Svoyam, Svoyasya. Please, who the... Hello?
Parnam.
Svoyam, Svoyasya. Parnam, Parnasya. Kundakaha, Kundasya.
Kundakasya. Kundukasya.
Kundakasya, Kundakaha, Kundakasya.
Dhanyavada. Next is Aparna Bhagini, next three.
Chibukam, Chibukasya. Annam, Annasya. Dugdham, Dugdhasya.
Dhanyavada. सौजन्या भगिनि
लवणं लवणस्य पात्रं पात्रस्य पत्रं पत्रस्य
धन्यवादः नेक्स्ट् इस् शिल्पा भगिनि
चित्रं चित्रस्य वनं वनस्य जलं जलस्य
धन्यवादः नेक्स्ट् टु दीपन् महोदय
भवनं भवनस्य नखं नखस्य
धन्यवादः अस्तु नेक्स्ट् इस् वी केन् से फलं फलस्य बीजं गृहं गृहस्य द्वारं सो डोर् आफ् द हौस् सीड्स् आफ् द फ्रूट् सो वि विल् स्टार्ट् वित् राजेश् महोदय वाहनं चालकः
वाहनस्य चालकः
नेक्स्ट् वन् इस् वा रीड् टु
महाभारतस्य अध्यक्षः
वाहनस्य चालकः महाभारतस्य अध्यायः धन्यवादः दीपन् महोदय नेक्स्ट् टु कृष्ण महोदय म्यूट् करोतु कृपया
पुस्तकस्य पुटः चलनचित्रस्य नटी
चलनचित्रस्य नटी एक्ट्रेस् आफ् द मूवी पेज् आफ् द बुक् सो नेक्स्ट् इस् डिड् ऐ जस्ट् कोल् दि पञ्जी रैट् दीपन् महोदय शिल्पा भगिनी नेक्स्ट् टु
पत्रस्य वर्णः
नेक्स्ट्
वस्त्रस्य सूत्रं पुष्पस्य पुष्पदानि
नेक्स्ट् इस् सौजन्या भगिनी सत्य महोदय ऐ हेव् टु अपोलजैस् टु यु ऐ हेव् नाट् कालिङ्ग् यु If you are able to speak, then just chat and then we can try.
Jeevanasya Bhagini. Mandirasya Parisaraha.
Jeevanasya Lakshyam. Mandirasya Parisaraha. Dhanyavada. Then it is Krishnan Mohde. एकं वाक्यं वदतु एकं
उद्यानस्य पुष्पं हलो उद्यानस्य पुष्पं हलो
हा वदतु
उद्यानस्य पुष्पं करेक्ट्
स्पष्टं नास्ति
उद्यानं पुष्पम् उद्यानस्य पुष्पं
हा धन्यवादः समीचीनं समीचीनम् अस्तु नेक्स्ट् इस् सीमा भगिनी
फलं बीजं फलस्य बीजं
फलस्य बीजं धन्यवादः सो शाकुन्तलं कालिदासः भगिनी वदतु सिं
शाकुन्तलस्य लेखकः कालिदासः
धन्यवादः अस्तु राजेश महोदय नेक्स्ट् वन्
रामायणस्य लेखकः वाल्मीकिः
धन्यवादः दीपन् महोदय
महाभारतस्य लेखकः व्यासः
धन्यवादः म्यूट् करोतु. धन्यवादः. अस्तु, नेक्स्ट् इस् शिल्पा भगिनी.
तिरुकुरलस्य लेखकः वल्लुवरः. वल्लुवर्
वल्लुवरः वल्लुवरः. धन्यवादः. नेक्स्ट् इस् सौजन्या भगिनी.
शिलप्पधिकारस्य लेखकः इलङ्गो.
शिल्पधिकारस्य लेखकः इलङ्गो. धन्यवादः. नेक्स्ट् इस् हेव् ऐ मिस्ड् सम्बडि? ऐ थिङ्क् ऐ हेव् सत्य महोदय, डु यू वाण्ट् टु ट्रै इफ् युर् मैक् वर्क्स् नौ? अस्तु, सो नेक्स्ट् वन् इस् वि विल् यूस् द प्रोनौन्स् फोर् न्यूटर्. सो प्रोनौन्स् फोर् न्यूटर् आर् तत्, एतत्, किम्. इफ् यु रिमेम्बर् तत् फलम्, एतत् फलम्, किं फलम्. सो वी हेव् डन् देट् प्रोनौन्स् बिफोर्. सो तस्य, एतस्य, कस्य. मित्रस्य गृहं, किं गृहं, कस्य गृहं. रामस्य गृहं, रामस्य गृहं. मित्रस्य गृहं, कस्य गृहं, रामस्य गृहम्. एतत्, एतत् द्वारं कुत्र, द्वारं, द्वारं कुत्र, द्वारं. एतस्य द्वारं तत्र अस्ति, एतस्य द्वारं तत्र अस्ति. तस्य द्वारं कुत्र अस्ति, तस्य द्वारं कुत्र अस्ति, एतस्य द्वारं तत्र, तस्य द्वारं तत्र अस्ति. तत् वर्णः कः, तस्य वर्णः कः. एतस्य वर्णः रक्तवर्णः. सो नेक्स्ट् इस् द श्लोकः फोर् षष्टि विभक्ति वित् न्यूटर्. सो हियर् सैन्यस्य, सैन्यस्य अस्माकं तु विशिष्टा. ते तानि बोध द्विजोतं. नायिका मम सैन्यस्य संज्ञार्थ तान् ब्रबीमि ते. So here actually this shloka is not for neuter. They have put a different one. So we can miss that one. So what we will do, ekam ekam vakyam vadatu, anything with the neuter or pulingah. Like kasya graham, kasya phalam, kasya anything, etasya. That using any of those, you have to be creative here. Think of anything around your environment and use the, and make one sentence. So shall we, anybody want to unmute and make a sentence, one sentence?
Amra phalasya ratam madhuram asti.
समीचीनं महोदय. आम्रस्य रसं मधुरम् अस्ति. धन्यवादः. नेक्स्ट् एनिबडि? अस्तु, धन्यवादः. सो वि विल् डू द साङ्ग् नौ.
Oh.
Is it Krishna Moda?
Yes. I want to say something on the last slide, last slide.
Yeah?
Ramasya Dirham Asti. Ramasya Gram Dwaram Nasti.
Ramasya Grehe.
Grehe Dwaram Nasti. Ramasya Grehe Dwaram.
Ramasya Graham Asti. Ramasya Grahamasya Grehasya Dwaram Nasti. Is that what you want to say?
Yes, yes. Ramasya Grahe Dwara Tatra Asti.
Ramasya Graham Tatra Asti. Ramasya Graham Asti. Ramasya Graham Ramasya
Graham Dwaram Grahad Dwaram
Grehasya Grehasya Dwaram Nasti. Or Tasya Dwaram Nasti. तत्र अस्ति रामस्य गृहं तत्र अस्ति तस्य द्वारं नास्ति और तस्य और द्वारस्य वर्णः रक्तवर्णः एनिबडी एल्स् वाण्ट् टु मेक् ए सेण्टेन्स् बिफोर् वि गो टु द साङ्ग्
वातायनस्य वर्णः श्वेतः
सो वेन् यु आर् मेकिङ्ग् सेण्टेन्स् परस्म टेल् मी युर् नेम् अहं सीमा अस्मि अहं कृष्णः अस्मि देन् मेक् ए सेण्टेन्स्
अहं शिल्पा अस्मि वातायनस्य वर्णः श्वेतः
समीचीनं भगिनि वातायनस्य वर्णः श्वेतः एनिबडि एल्स्
कस्य पुस्तकं मम पुस्तकं
पूर्णं वाक्यं वदतु भगिनि तस्य पुस्तकम् अस्ति
कस्य पुस्तकं मम पुस्तकम् अस्ति
कस्य पुस्तकमस्ति मम पुस्तकमस्ति So, you will say, whose book is that? My book is this. This is my book. Astu dhanyavadah. Anybody else want to say sentence? Astu, next, we can go to the song. So, this song is to... increase the vocabulary of different birds and it's very nice song so you can do lead and follow so let's try how it goes chiv chiv chatakah kau kau ka kah
chiv chiv chatakah kau kau ka kah
वदति कपोतः गुटुरुं गुं मिठु मिठु शुकः कुहु कोकिलः वदति कुटुकः कुकु चकु वहरति शयेनः नीलाकाशे गृधा अपि च सञ्चरति बकः उलूकः किमपि न वदतः मौनी भूतो पश्यत्रे
मौनी भूतो पश्यत्रे
सुन्दरसरसि श्वेतः हंसः कादम्बः अपि तत्रैव पक्षिगणानां राजा कः खलु रम्यमयूरः स एव सो there is a YouTube link for it. It's very nice for children. So you could sing that song in your own time with your younger ones, and they would love it. Although I have not tried to sing it myself, because I don't consider myself to be a great singer. So I try to, but pronunciation point of view, just listen to it on the YouTube. So here is the recognition of the bird. So chiv chiv chatkah ko ko ka kah. So chiv chiv chatkah ko ko ka kah. Vadati kapotah gutrugum. Vadati kapotah kapotah gutrugum. Next, mithu mithu shukah kuhu kokilah. Mithu mithu shukah kuhu kokilah. Vadati कुकुटः कुकु चकु कुकुटः वदति कुकुटः कुचु कुकु चकु नेक्स्ट वहरति शेनः नीलाकाशे वहरति शेनः नीलाकाशे गृधा अपि च सञ्चरति गृधः गृधः अपि च सञ्चरति बकः अलूकः किमपि न वदतु मौनीभूतु पश्यत्रे बकः अलूकः किमपि न वदति मौनीभूतु पश्यत्रे सुन्दरसरसि श्वेत हंसः सुन्दरसरसि श्वेत हंसः कादम्भा अपि तत्रैव सो हंसः सुन्दर हंसः कपोतः तत्र एव पक्षिगणां नाम राजः का खलु रम्यमयूरः स एव मयूरः अत्र न दृश्यते अत्र दृश्यते मयूरः राजा एव सो वी केन् फिनिश् हियर् टुडेस् लेसन् वित् द शान्तिमन्त्रं सो सर्वे मिलित्वा गायन्तु भवन्तु सुखिनः सर्वे निरामयाः पश्यन्तु मां कर्तु भवेत् धन्यवादः
धन्यवादः
धन्यवादः अग्रे सप्ताह